आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिझा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अवोचत् यत् देशः अधुना प्रौद्योगिक्याः न केवलम् उपभोक्ता अपितु प्रौद्योगिक प्रगत्याः अग्रणीः अभवत्। सः प्रोक्तवान् यत् प्रौद्योगिक्यां देशस्य प्रगतिः द्रुतगत्या अग्रे वर्धते। प्रधानमन्त्री नवदिल्ल्यां भारतमण्डपम् इत्यत्र इमोजिंग साइंस एण्ड टेक्नोलॉजी इनोवेशन कॉन्क्लेव 2025 इत्यस्य उद्घाटनानन्तरम् एतत् वक्तव्यं प्रायच्छत्। प्रधानमन्त्री अकथयत् यत् सर्वकारः देशे नवाचारस्य मॉडर्न इकोसिस्टम इत्येतत् निर्मातुं सरलान्वेषणं केन्द्रितं करोति। सः एतदपि सबलं प्रत्यपादयत् यत् देशे विश्वस्य सफलतमः डिजिटल पब्लिक इन्फ्रास्ट्रक्चर इति उपक्रमः निर्मितः अस्ति। प्रधानमन्त्री देशे रिसर्च डेवलपमेंट इकोसिस्टम इत्येतस्य सुदृढीकरणम् उद्दिश्य 1,00,000,00,000 रिसर्च डेवलपमेंट इनोवेशन स्कीम फंड इत्येतस्य अपि शुभारम्भं विहितवान्।
भारत में इनोवेशंस का आधुनिक इकोसिस्टम बने, इसके लिए हम ईज ऑफ डूइंग रिसर्च पर भी फोकस कर रहे हैं। इस दिशा में हमारी सरकार ने फाइनेंशियल रूल्स और प्रोक्योरमेंट पॉलिसी में भी कई रिफॉर्म्स किए हैं। हमने रेगुलेशन, इंसेंटिव और सप्लाई चेन्स में भी रिफॉर्म्स किए ताकि प्रोटोटाइप जल्दी से लैब से निकलकर मार्केट तक पहुंचे।
मेरा बूथ सबसे मजबूत इत्यस्य उपक्रमस्य अन्तर्गतं प्रधानमन्त्री नरेन्द्र मोदी अद्य बिहार राज्ये महिलाभिः सह संवादं करिष्यति। एकस्मिन् जनसंचार पटले श्रीमोदी चर्चायाः विषये उत्साहं प्रकटितवान्। असौ प्रोक्तवान् च यत् बिहार विधानसभा निर्वाचने भाजपेति दलस्य विजयं सुनिश्चेतुं महिलाः समर्पणभावेन योगदानं कुर्वन्ति इति। बिहारे विधानसभा निर्वाचनस्य प्रथमचरणस्य प्रचारः अद्य सायंकाले समापनात् पूर्वं पूर्णगत्या प्रवर्तते। प्रमुख प्रचारकाः एनडीए महागठबंधन इत्येतयोः प्रमुखयोः संघटनयोः वरिष्ठ नेतारः च विभिन्नेषु निर्वाचन क्षेत्रेषु बहुविध सार्वजनिक सभाः आयोजयन्ति। अस्मिन् चरणे गुरुवासरे 18 मण्डलेषु 21,00,000 निर्वाचन क्षेत्रेषु मतदानं भविष्यति। जनतादलस्य अध्यक्षः मुख्यमंत्री च नीतीशकुमारः भागलपुरनगरे निर्वाचनसमारोहं सम्बोधयन् प्रोक्तवान् यत् तस्य नेतृत्वे बिहार राज्यं विकासस्य मार्गे प्रगतिं करोति। भारतीय निर्वाचनायोगस्य वरिष्ठ उपनिर्वाचनायुक्तः ज्ञानेश भारती इत्येषः पश्चिमबंगराज्ये 3 सदस्यानां दलस्य नेतृत्वं करिष्यति। एतानि दलानि नवम्बर मासस्य 5 8 यावत् बांग्लादेशस्य उत्तरबंगे कूचबिहारस्य जलपाईगुड़ी मण्डलस्य अलीपुदोर मण्डलस्य च भ्रमणं करिष्यन्ति। प्रवासकाले पश्चिमबंगस्य मुख्य निर्वाचनाधिकारी मनोज कुमार अग्रवालः निर्वाचनायोगस्य दलेन सह भविष्यति। भारतीय ऋतु विज्ञान विभागेन अद्य जम्मू कश्मीर लद्दाख हिमाचल प्रदेश उत्तराखण्ड इत्येतेषु राज्येषु विद्युतेन सह मेघगर्जनस्य पूर्वानुमानं प्रकटितम्। तत्रैव दिल्ली एनसीआर इत्यत्र वायुगुणवत्ता अतीव दुर्बलश्रेण्यां वर्तते। तत्रैव बिहार विधानसभा निर्वाचने आरजेडी दलस्य नेता तेजस्वी प्रसाद यादवः भोजपुरे निर्वाचन समारोहं सम्बोधितवान्। बिहार राज्ये राजनैतिक परिवर्तनं निश्चितमस्ति। अस्मिन् समये जनाः महागठबंधनं सत्तां प्रदातुं समुत्सुकाः सन्ति इति सः अघोषयत्। एनडीए पक्षतः प्रधानमन्त्री नरेन्द्र मोदी, केन्द्रीय गृहमन्त्री अमित शाहः, उत्तर प्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः, भाजपेति दलस्य प्रमुख प्रचारकाः च अनेके जनसभाः सम्बोधयिष्यन्ति। उत्तरप्रदेशस्य मुख्यमन्त्री बीजेपी दलस्य नेता च योगी आदित्यनाथवर्यः दरभंगानगरे जनसभां सम्बोधितवान् इति वार्ताः।